नमः सर्वेभ्यः। अद्य परमलघुमञ्जूषायां षष्ठः पाठः, मार्च् मासस्य पञ्चदशः दिनाङ्कः। अद्य वयं शक्तेः त्रैविध्यं, नानार्थकशब्देषु शक्तिनियमनं च पठामः। आदौ मङ्गलम्। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। शिवन्नत्वा हि नागेशेनानिन्द्या परमालघुः वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते। परमलघुमञ्जूषायाम् इदं प्रथमं प्रकरणं शक्तिनिरूपणम् इति। तत्र उपोद्घातरूपेण स्फोटप्रभेदान् उक्त्वा शब्दस्य प्रामाण्यं साधयित्वा, यः शब्दः भवति तस्य तिस्रः वृत्तयः, शक्तिः, लक्षणा, व्यञ्जना इति। पदपदार्थयोः सम्बन्धः वृत्तिः इत्युच्यते, सा च त्रिविधा शक्तिः, लक्षणा, व्यञ्जना इत्युक्त्वा शक्तिलक्षणं निरूपयितुं प्रवृत्तः नागेशभट्टः। तत्र शक्तिलक्षणे आदौ तार्किकानां मतम् उच्यते। ईश्वरेच्छा शक्तिः, अस्मात् पदादयमर्थो बोद्धव्यः इत्याकारक ईश्वरेच्छा एव शक्तिः, सैव सङ्केतसम्बन्धः इति तार्किकाः प्रतिपादयन्ति। तच्च नागेशेन निराक्रियते, इच्छायाः सम्बन्धत्वा सम्भवात्। पदपदार्थयोः सम्बन्धः सम्बन्धिद्वयभिन्नत्वे सति, द्विष्ठत्वे सति, आश्रयतया विशिष्टबुद्धिनियामकः इति सम्बन्धस्य लक्षणमुच्यते। इच्छायां तु सम्बन्धत्वं न सम्भवति, अतः ईश्वरेच्छाशक्तिः इति न युज्यते। तर्हि किन्नाम शक्तिः इति चेत्, पदपदार्थयोः सम्बन्धान्तरमेव शक्तिः, वाच्यवाचकभावापरपर्याया। वाच्यवाचकभावाख्यः कश्चित् सम्बन्धः, स एव शक्तिः। स च साक्षात् ज्ञातुं न शक्यते, किन्तु अनुमीयते। तत्र शक्तिग्राहकः सङ्केतः, कथं शक्तिः शक्तेः विद्यमानत्वम् अथवा अस्य पदस्य अस्मिन्नर्थे शक्तिः इति कथं ज्ञायते इति चेत् सङ्केतेन ज्ञायते। सुसङ्केत एव इतरेतर अध्यासः, एकस्मिन् अपरधर्मस्य आरोपः अध्यासः इत्युच्यते। अध्यासः एव सङ्केतः, सङ्केतात् शक्तिग्रहः भवति। अध्यासमूलकं च तादात्म्यं विद्यते, सोऽपि सम्बन्धः। तादात्म्यम् अस्ति इत्यतः एव शब्दबोधरूपं कार्यं जायते। तादात्म्यसम्बन्धद्वारा एव अस्माभिः शक्तिः अनुमीयते इति सिद्धान्तः। यथा प्रदीपगता प्रकाशकशक्तिः, वस्तुप्रकाशकशक्तिः आलोकविषयसम्बन्धे सति कार्यं जायते, वस्तुप्रकाशनरूपं कार्यं जायते। तत्कार्यद्वारा, तत्कार्यमस्ति इत्यतः शक्तिः अनुमीयते। एवमेव शब्दार्थयोः तादात्म्यरूपः सम्बन्धः विद्यते, ततः शाब्दबोधरूपं कार्यं जायते, तत्र शक्तिः अनुमीयते। उपकारस्य यत्रास्ति धर्मस्तत्रानुमीयते। शक्तीनामप्ययं शक्तिः, गुणानामप्ययं गुणः इति भर्तृहरेः कारिका उद्धृता नागेशेन। शक्तेः कार्यजनकत्वे अथवा बोधजनकत्वे तादात्म्यरूपः सम्बन्धः आवश्यकः इत्यपि प्रतिपादितम्। तत्र तादात्म्ये निरूपकः अर्थः शक्यः इत्युच्यते। तादात्म्यस्य आश्रयः यत् पदं, तत् शक्तम् इत्युच्यते। अतः शक्तिः पदपदार्थयोः सम्बन्धः, तत्र पदं शक्तम्, अर्थश्च शक्यः इत्येवं विभागः। शब्दार्थयोस्तादात्म्ये उदाहरणान्यपि दृष्टानि, यथा अर्थं वदति, अर्थं शृणोति इत्यादिषु शब्दधर्मः अर्थे आरोप्यते, इतरेतर अध्यासेन तादात्म्यम्। एवमेव ओमित्येकाक्षरं ब्रह्म इति सामानाधिकरण्येन ओम् इति शब्दः, तस्य अर्थः ब्रह्म इति निर्दिश्यते, सामानाधिकरण्येन निर्दिश्यते। एवं एतादृशैः व्यवहारैः शब्दार्थयोः तादात्म्यं ज्ञायते. किं तत् तादात्म्यम् इति चेत् तद्भिन्नत्वे सति तदभेदत्वेन प्रतीयमानत्वं तादात्म्यम्. वस्तुतः शब्दः भिन्नः, अर्थश्च भिन्नः, तथापि अभेदेन प्रतीयमानं प्रतीतिः भवति इत्येतदेव तादात्म्यम् इत्युच्यते. भेदाभेदसमनियतम् इति. तत्र भेदः वास्तविकः, अभेदः अध्यस्तः. अत एव तार्किकैः कश्चित् आक्षेपः क्रियते. यदि शब्दार्थयोः तादात्म्यं तर्हि मधुशब्दोच्चारणे मुखे माधुर्यरसास्वादापत्तिः अथवा वह्निशब्दोच्चारणे मुखे दाहापत्तिः इत्यादि आक्षिप्यते तार्किकैः. तत्र अभेदः वास्तविकः न, वस्तुतः अध्यस्तः. तेन कारणेन तादृशः आक्षेपः न तिष्ठति. किञ्च साक्षात् बाह्यपदार्थस्य तादात्म्यं न प्रतिपाद्यते. वस्तुतस्तु बौद्धः पदार्थः तस्य स्फोटाख्येन शब्देन सह तादात्म्यं प्रतिपाद्यते. स्फोटस्य बौद्धपदार्थस्य च तादात्म्यं. बौद्धपदार्थस्य च अङ्गीकारे प्रमाणान्यपि दर्शितानि. एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः, कूर्मक्षीरतये स्नातः खपुष्पकृतशेखरः इत्येवं वन्ध्यासुतः, शशशृङ्गं, खपुष्पं, कूर्मक्षीरम् इत्यादयः पदार्थाः न विद्यन्ते. वस्तुतः सत्ता तु एतेषां पदार्थानां नास्ति, तथापि शब्दबोधस्तु भवति. कथं भवति? शब्दश्रवणमात्रेण बौद्धः कश्चित् पदार्थः. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः इति योगसूत्रेषु पतञ्जलिः. शब्दज्ञानमात्रेण बुद्धौ यः अनुपतति तादृशः वस्तुशून्यः बाह्यपदार्थरहितः विकल्पशब्देन कथ्यते. तत्तु सर्वेषामपि शब्दानां श्रवणे भवति, न केवलं तेषां शब्दानां ये वस्तुतः विद्यमानं पदार्थं निर्दिशन्ति, अपि तु अविद्यमानं पदार्थं निर्दिशन्ति ये शब्दाः, तेषामपि श्रवणेन कश्चित् बौद्धः पदार्थः भासते. अर्थात् अर्थः बुद्धौ भासते. तस्य पदार्थस्य स्फोटेन वाचकेन शब्देन सह तादात्म्यं प्रतिपाद्यते. तस्य च बौद्धपदार्थस्य माधुर्यादिगुणो वा अथवा दाहशक्तिर्वा नास्ति इत्यतः सः आक्षेपः न युज्यते इति सिद्धान्तः. अत एव शशशृङ्गादीनाम् अर्थवत्वात् प्रातिपदिकत्वं. यदि अर्थवत्वं नास्ति, वस्तुतः पदार्थः नास्ति शशशृङ्गमिति, किन्तु यदि अर्थवत्वं नास्ति तर्हि अर्थवदधातरप्रत्ययः प्रातिपदिकम् इत्यत्र अर्थवतः एव प्रातिपदिकत्वनिर्देशात् प्रातिपदिकत्वं न स्यात्, तथा च सुबादयः प्रत्ययाः न स्युः, पदत्वमपि न स्यात् इति प्रतिपादितम्. एवञ्च यत्र एकः शब्दः बहून् अर्थान् अभिदधाति, बहुषु अर्थेषु तस्य शक्तिः विद्यते, तत्र एकः एव शब्दः वा बहवः वा इति चेत् अर्थभेदात् शब्दभेदः इति सिद्धान्तः. वस्तुतः शब्दाः भिन्नाः, तत्तदर्थ तादात्म्यापन्नः शब्दः भिन्नः. यथा सैन्धव इति एकं पदमस्ति, तस्य अश्वः इत्यप्यर्थः लवणम् इत्यपि अर्थः. तत्र लवणपदार्थेन सह तादात्म्यापन्नः सैन्धवशब्दः भिन्नः. एवम् अश्वशब्दे अश्वपदार्थेन तादात्म्यमापन्नः सैन्धवशब्दः भिन्नः इत्येवम् अर्थभेदात् शब्दभेदः. ते तु भिन्ना एव शब्दाः. यावन्तः अर्थाः तावन्तः शब्दाः. तस्य तस्य शब्दस्य तस्मिन्नर्थे शक्तिः इति सिद्धान्तः. किन्तु समानाकारमात्रेण वर्णानपूर्वी तु सर्वत्र अभिन्न इत्यतः एकः शब्दः बह्वर्थः इति व्यवहारोऽपि दृश्यत एव. ततश्च अपभ्रंशेषु शक्तिः अस्ति वा नास्ति इति विचारः कृतः. अपभ्रंशाः नाम असाधवशब्दाः. एकः साधुशब्दः, तस्य बहवः अपभ्रंशाः भवितुमर्हन्ति. यथा गो इति शब्दः, तस्मिन्नर्थे साधुः इत्युच्यते. गावी, गोणी, गोता इत्यादयः बहवः तस्य अपभ्रंशाः. तस्मिन् तस्मिन् प्रदेशे श्रूयन्ते इति. ते अपभ्रंशाः वाचकाः उत न इति प्रश्नः. तार्किकानां मते साधुशब्दानामेव वाचकत्वम्, असाधुशब्दानां वाचकत्वं नास्ति इति ते वदन्ति. किन्तु वैयाकरणैः यथा साधूनां तथा असाधूनाम् अपि शब्दानां वाचकत्वम् अङ्गीक्रियते एव. यतोहि व्यवहारः यथा अस्ति, शक्तिग्रहणे व्यवहारः एव अत्यन्तं मुख्यः. व्यवहारः यथा साधुशब्दानां तथा अपभ्रंशानामपि भवति, तत्रापि शक्तिं ग्राहयति इत्यतः अपभ्रंशेष्वपि शक्तिः विद्यते इति वैयाकरणाः. तार्किका वदन्ति अपभ्रंशेषु साधुशब्दस्मरणद्वारा भ्रमाद्वा अर्थबोधः. ये तु व्युत्पन्नाः पदज्ञानं येषाम् अस्ति साधुशब्दानां ज्ञानं, ते असाधुं कञ्चित् शब्दं श्रुत्वा साधुशब्दस्मरणपूर्वकं तस्य अर्थम् अवगच्छन्ति इति एकं मतम्. ये तु अनभिज्ञाः अयं साधुशब्दः इत्यपि न जानन्ति, अपभ्रंशमेव साधुं मन्यन्ते, तत्र तु भ्रमात् अर्थबोधः इति तार्किकैः उच्यते. किन्तु एतदुभयं निराक्रियते. तर्हि साधुशब्दस्मरणं विनापि असाधुशब्दश्रवणमात्रेण अर्थबोधः अनुभवसिद्धः. तथैव भ्रमः यत्र उत्तरकालिकज्ञानेन बाध्यत्वम् अस्ति तस्यैव भ्रमत्वम् अङ्गीक्रियते. अत्र तु निश्चितं ज्ञानमेव भवति, तत्रापि कदाचित् केषाञ्चित् साधुशब्दश्रवणे एव सन्देहः स्यात्. अपभ्रंशश्रवणेन सन्देहस्य निवृत्तिः भवति, निश्चितज्ञानोत्पत्तिः अपि भवति, एवं सति तस्य भ्रमत्वमपि न युज्यते इत्यतः अपभ्रंशेष्वपि शक्तिः स्वीक्रियते. एवं तर्हि किं कः भेदः अपभ्रंशानां साधुशब्दानाम् इति चेत्, साधुशब्दाः धर्मप्रयोजकाः. समानायाम् अर्थावगतौ शब्दैश्च अपशब्दैश्च शास्त्रेण धर्मनियमः इति महाभाष्ये वार्तिककारेणैव उच्यते. शास्त्रेण धर्मनियमः एव क्रियते. साधुशब्दानां प्रयोगे अभ्युदयः, एकशब्दः सुष्ठुज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति इति श्रुतिः. अतः साधुशब्दानां ज्ञानेन ज्ञानपूर्वकप्रयोगेण धर्मोत्पत्तिः भवति, पुण्यजनकता अस्ति साधुशब्दानाम्, असाधुशब्दानां तु तन्नास्ति. किं नाम साधुत्वम् इति चेत्, व्याकरण अन्वाख्येयत्वं, व्याकरणनियमैः साधनीयत्वं साधुत्वम्, अथवा पुण्यजनकतावच्छेदकधर्मवत्वम्. येषां प्रयोगेण पुण्यं जायते ते शब्दाः साधवः इति साधुत्वं लक्ष्यते. एवञ्च साधूनां असाधूनां च शब्दानाम् अर्थबोधे नास्ति भेदः. अर्थात् उभयोरपि वाचकत्वम् अस्ति, किन्तु साधुत्वं येषाम् अस्ति तेषां शब्दानां प्रयोगेण धर्मसिद्धिः भवति इति वैयाकरणसिद्धान्तः. Any questions with what we did last class?
Good morning, huh? The last class, you mentioned about Yavagu. Yava, and then you said the Mlechas look at it in one way and the Aryas look at it in a different way. But that is not Apabhramsha, because that word is there. It's only the meaning is different.
That is
in different
not an Apabhramsha. It is not an Apabhramsha. That is not given as an example for Apabhramsha. He is saying, yadi vachakatvam nasyat. It is not exactly a word being changed, but the meaning is changed. Apabhramshaha yatra padasya bhedaha bhavati athava arthasya. Atra tu arthe eva bhedaha drishyate natu shabde. Yava iti shabdaha samanaha, kintu arthaha vidyate. Aryehi dirghashuka paratvena yava shabdaha avagamyate. Lechaistu priyangu parakatvena iti.
Yes, ma'am. Yes, ma'am. Thank you.
एवं शक्तिलक्षणं निरूपितं वैयाकरणमतानुगुणम्। अधुना शक्तेः प्रभेदाः उच्यन्ते। सा च शक्तिः त्रिधा। शक्तिः त्रिविधा भवति, रूढिः, योगः, योगरूढिश्च। सो देयर आर थ्री काइंड्स ऑफ शक्ति, रूढिः, योगः, योगरूढिश्च। सो रूढि इज जनरली नोन एज कन्वेंशन, यत्र अत्रैव दीयते। शास्त्रकल्पित अवयवार्थभानाभावे समुदायार्थनिरूपितशक्तिः रूढिः। रूढिः नामका समुदायार्थनिरूपितशक्तिः। वर्णसमुदायं श्रुत्वा किञ्चित् पदमस्ति, तेन कश्चिदर्थः भासते। यथा मणि नूपुरादौ, मणिः इति शब्दः, वि अण्डर्स्टाण्ड् संथिङ्ग्, अ जेम् आर् अ ज्युवेल्, नूपुरम् अङ्क्लेट्। अत्र प्रकृतिप्रत्ययविभागः नास्ति। किमर्थं मणिः इत्युक्ते स एव पदार्थः, नूपुरम् इत्युक्ते स एव अर्थः कुतः इति चेत् तत्र किमपि उत्तरं न भवति। सो यु केनाट् आस्क् वै अ मणि इस् काल्ड् अ मणि आर् अ नूपुर इस् काल्ड् अ नूपुर, देर् इस् नो आन्सर्। शास्त्रकल्पित अवयवार्थभान अभावे, अवयवार्थभानस्य अभावे, अत्र प्रकृतेः अयमर्थः, प्रत्ययस्य वा अयमर्थः इत्यादिकं न दृश्यते। समुदायार्थनिरूपितशक्तिः, मणिः इति वर्णसमुदायस्य कश्चिदर्थः, एवं नूपुरम् इति वर्णसमुदायस्य कश्चिदर्थः। इत्येवं यत्र समुदायार्थेन समुदायस्यैव शक्तिः, न तु कल्पित अवयवानां, तत्तु अवयवाः न सन्ति इत्येव सिद्धान्तः, किन्तु शास्त्रकल्पितः अवयवार्थोऽपि यत्र न प्रतीयते, तादृशी शक्तिः रूढिः इत्युच्यते। शास्त्रकल्पित अवयवार्थनिरूपिता शक्तिः योगः। यत्र तु शास्त्रेण कल्पिताः ये अवयवाः, तेषाम् अर्थस्य प्रतीतिः भवति, तत्र योगः इत्युच्यते। यथा पाचकादौ, पाचकः इति शब्दः, इट् मीन्स् अ कुक्, कथं पाकं करोति, पचति इति पाचकः, तत्र पच् इति धातुः, नुल् इति प्रत्ययः, धातोः व्यापारः अर्थः, इट् मीन्स् द एक्शन् आफ् कुकिङ्ग्, प्रत्ययस्य कर्ता, सो प्रत्यय इस् द एजेण्ट्, सो द एजेण्ट् हु पर्फार्म्स् द एक्शन् आफ् कुकिङ्ग् इस् काल्ड् अ कुक्, अयं योगः, सो दिस् इस् काल्ड् योग। योग इस् वेर् यु अण्डर्स्टाण्ड् अ वर्ड् ड्यू टु इट्स् कम्पोनेण्ट्स्। सो देर् आर् प्रकृतिप्रत्ययविभागः अस्ति, प्रकृतेः अयमर्थः, प्रत्ययस्य अयमर्थः, तेषां संयोगेन कश्चिदर्थः प्रतीयते। शास्त्रकल्पित अवयवार्थनिरूपिता शक्तिः योगः। शास्त्रकल्पित अवयवार्थभानस्य अभावे सति समुदायार्थनिरूपितशक्तिः रूढिः इति, रूढिः योगः, योगरूढिः इत्यपि अस्ति। किमिदम्? शास्त्रकल्पित अवयवार्थ अन्वित विशेष्यभूतार्थनिरूपिता शक्तिः योगरूढिः। यत्र उभयोः प्रसङ्गः विद्यते, अर्थात् यौगिकः अर्थः अपि अस्ति, किन्तु रूढिः अपि विद्यते। यथा पङ्कजपदे, पङ्कजं नाम कमलपुष्पम् इत्युच्यते, तत्र पङ्कजम् इति पदं पङ्कात् जायते, दट् विच् इस् बोर्न् from panka, panka is it's mixture of mud and water, a muddy pond or a puddle, evam pankajam iti usyate, panka jayate iti pankajam, but it is not purely yoga because there are many things which are born in panka. Okay, there could be other flowers which are born there, or there could be some insects, कीटास् इत्यादि, अतः सर्वाणि अपि पङ्कजानि, किन्तु पङ्कजम् इति पदं कमलमात्रं बोधयति। किमर्थं? शास्त्रकल्पित अवयवार्थ अन्वित विशेष्यभूतार्थ निरूपिता शक्तिः। सो कन्वेन्शनली द वर्ड् पङ्कज रेफर्स् ओन्ली टु कमल, योगार्थस्यापि अन्वयः अस्ति। पूर्वं यत्र केवल रूढिः यथा मणिः अथवा नूपुरं, तत्र यौगिकार्थः नास्त्येव, सो यु केनाट् स्प्लिट् और् यु केनाट् गेट् एनी मीनिङ्ग् out of the word itself. Atra tu padat avayava vibhaga dvara kashchana arthaha pratiyate tasa arthaha anveti. Kintu tatrapi there is a restriction. So among all things which are pankaja, the word pankaja will refer only to the lotus. Iti rudhi. So it is a combination of yoga and rudhi. Shastra kalpita avayavartha anvita visheshya bhutartha nirupita shakti yoga rudhi yatha pankaja pade tatra pankajanikartra padmam iti bodhat. So the bodha here includes both. One is pankajanikartra, that which is born in panka or from panka. Padmam, the lotus, and that particular flower. Iti yogikarthasya rudhyarthasya ubhayoh bodhah asti ityatah iyam shaktihi yoga rudhihi ityuchyate. Avayavartha bhanam. Bhanam namakim bodhah ityeva arthah. Kena chitprishtam avayavartha bhana bhave. Bhanam ityukte bodhah avagamanam ityarthah. Evam cha shaktihi tridha. Rudhihi yogaha yoga rudhihi. Tatra kechana vadanti pankajam iti pade lakshana natu yoga rudhihi. So we will do lakshana. Pankajayate iti pankajam. So it refers to anything which is born in panka. Tatra lakshanaya padmasya athava kamala pushpasya pratitihi iti kechana vadanti. Lakshana namaka iti agrima prakarane nirupyate. The general understanding of lakshana is shakya sambandho lakshana. When the shakyartha does not fit the occasion, then something related to it is taken as the meaning. Sa lakshana ityuchyate yatha gangayam ghoshaha. Gangayam ghoshaha iti udaharanam diyate. Gangayam nama ganga pravahasya madhye kashtana ghoshaha. Ghoshaha Abhirapalli, a village, Gramaha ityarthaha. Gramaha Ganga Pravahe Katham Bhavitumarahati. Can a village be situated in the water? No. Tathasati kimuchyate Ganga Shabdasya Vastutaha Tatra Ganga Pravahasya Madhye ityarthaha na apitu Ganga Tire Ganga Sambattham Tiram. So we extend the meaning of Ganga to apply not to the Ganga Nadi. The actual meaning of the word Ganga is the Pravaha. Sayeva Shakyarthaha. Kintu Tat Sambadhe Tire Arthaha Svikriyate. Tiram Eva Arthasena Svikriyate. This is called Lakshana. Okay? So we will see Lakshana in detail in the next Prakarana. So Tairushyate Pankajam. So Pankajatam. But because not everything born in panka is referred to as pankaja, by lakshana we take only kamala as the meaning. Iti kintu tat na yujyate. Padme anupapatti pratisandhanam sambandha pratisandhanam chavina na lakshana avasaraha. Because lakshana requires two things. One is anupapatti, shakyarthasya anupapatti, shakyarthaha na yujyate iti yatra tatraiva lakshyarthaha svikriyate. Yatha ganga, ityukte ganga pravahe ghoshasya asambhavaha. It is not possible for a village to be situated in the water. That is why we go for an extended meaning. So the extension of meaning is not possible unless there is anupapatti. Apija sambandha pratisandhanam. Yatra anupapatti asti, tatra shakyarthena sambaddhaha kashtana anyaha arthaha svikriyate. Yatha shakyarthaha pravahaha, tat sambaddham tiram lakshyarthatvena svikriyate. Atta tu pankajayate ityatra anupapatti nasti. There is no anupapatti because the kamala is born from panka. Ataha anupapatti nasti. Sambandhaha, what is the sambandha? There is no sambandha. Right? Panka, if there is a different padartha which is pankaja and lotus is something related to it, then we can look for lakshana. Padme anupapatti pratisandhanam sambandha pratisandhanam chavina na lakshana avasaraha. Ataha atra lakshana iti svikartum na shakyate esha api shaktihi इयं शक्तिः योगरूढिः इत्युच्यते. क्वचित् तात्पर्यग्राहकवशात् केवलरूढ्यर्थस्य केवलयोगार्थस्य च बोधः. ये यानि पदानि एवं योगरूढानि तत्र क्वचित् सम् केसस् केवलरूढ्यर्थस्य क्वचित् केवलयोगार्थस्य च बोधः. सो जेनरली बोथ् मीनिङ्ग्स् आर् प्रेसेण्ट्. यथा पङ्कजनिकर्तृ पद्मम्, पङ्कजनिकर्तृ इति योगार्थः, पद्मम् इति रूढार्थः, उभयोः बोधः प्रायेण भवति. कदाचित् तात्पर्यग्राहकवशात् बेस्ड् आन् द काण्टेक्स्ट् सम्टैम्स् केवलरूढ्यर्थस्य बोधो भवति अथवा केवलयोगार्थस्य बोधो भवति. तत् कथम् इति चेत् भूमौ पङ्कजम् उत्पन्नम् इति प्रयोगः. भूमौ पङ्कजम् उत्पन्नम् अत्र कः अर्थः? अ लोटस् बोर्न् आन् लैण्ड्. अत्र पङ्कजम् इत्यत्र पङ्काज्जातम् इत्यर्थः यदि स्वीक्रियते तर्हि विरोधः. पङ्काद् यज्जातम् अथवा पङ्के यद्भवति तत्तु भूमौ कथं भवति इति विरुद्धम्. अतः पङ्कजम् इत्यत्र केवलं पद्मम् इत्यर्थः एव स्वीक्रियते. भूमौ पङ्कजम् उत्पन्नम्. एवमेव मुखपङ्कजम् इति यदि कथ्यते अथवा चरणपङ्कजम् इति, तत्र पङ्कजनिकर्तृत्वं न उद्दिश्यते. सो यु आर् नाट् इण्टेण्डिङ्ग् टु से दट् द मुख आर् द चरण when you say make when there are prayogas like mukha pankajam or charana pankajam, we do not mean to say that the mukha or charana was born out of panka. Pankajani kartrutvam tatra na vivakshyate. Kevalasya rudhyarthasya nama padmatvasya eva bhanam. So tatra kevalam padmam ityarthaha eva svikriyate natu pankajani kartru ityarthaha. एवं भूमौ पङ्कजम् उत्पन्नम् इत्यत्रापि केवलरूढ्यर्थस्य बोधम्. कल्हार कैरव मुखेष्वपि पङ्कजेषु इत्यादयः अपि प्रयोगाः सन्ति. कल्हारः कैरवः इत्यादिषु पङ्कजेषु, अत्र पङ्कज शब्दस्य पद्मम् इत्यर्थः न, बिकास् ही इस् रेफरिङ्ग् टु मेनी स्लार्स् विच् आर् आल् बोर्न् इन् द पङ्क. अतः अत्र पङ्कजनिकर्तृत्वम् इति यौगिकार्थः एव बुध्यते, न तु रूढ्यर्थः. अत्र पङ्कजेषु इत्यत्र पङ्कजशब्दस्य पद्मम् इत्यर्थः न. ये यानि यानि पुष्पाणि कल्हारकैरवप्रभृतीनि पङ्के जायन्ते तेषु अन्यत् किमपि उच्यते. एवञ्च तात्पर्यग्राहकवशात् बिकास् आफ् द काण्टेक्स्ट् क्वचित् केवलरूढ्यर्थस्य क्वचित् केवलयोगार्थस्य च बोधः भवति. किन्तु प्रायेण यदा कमलम् इत्यर्थे पङ्कजशब्दः उपयुज्यते तदा प्रायेण पङ्कजनिकर्तृ पद्मम् इति योगार्थस्य रूढ्यर्थस्य उभयोः बोधः भवति. इयं शक्तिः योगरूढिः. स्पष्टं चेदम् आर्हादिति सूत्रे भाष्ये, आर्हादगोपुच्छ इत्यादि सूत्रमस्ति तत्र भाष्ये, अयं विषयः उक्तः इति नागेशभट्टेन प्रस्तूयते. एवञ्च रूढिः योगः योगरूढिः इति त्रिविधा शक्तिः उच्यते. रूढिः यत्र अवयवार्थभानं विना केवलसमुदायार्थभानम्. योगः यत्र समुदायस्य पृथगर्थः नास्ति, विशिष्य कोऽपि अर्थः नास्ति, अवयवानाम् अर्थगमनेन समुदायार्थः बुध्यते. योगरूढिः यत्र योगार्थः अपि अस्ति किन्तु योगार्थस्य रूढ्या नियमनं क्रियते. सो द योगार्थ इस् रिस्ट्रिक्टेड् टु अ पर्टिक्युलर् केस् बै रूढि. सो दट् इस् काल्ड् योगरूढि. There is a fourth kind of a word which we consider sometimes called yogika rudham. Okay. Tasya vishaye idanim uchyate. Ashwagandha iti padam asti. Ashwagandha adi padam oshadi visheshe rudham. Tasya artha dvayam. Okay. Ashwagandha iti padasya artha dvayam vidyate. Ekam oshadi visheshaha. It is a particular kind of herb. Particular plant or herb is called ashwagandha. Okay. It also means a horse shed. Ashwanam gandhaha yatra. So there, that place in which there is the scent of horses, which is the horse shed. Ityapi arthaha asti. Okay. So it has two different meanings. One of them is a conventional meaning, rudham, and the other meaning is yogikam. Ashwagandha adipadam, oshadhi visheshe rudham, ashwa sambandhi gandhavattaya, vajishala bodhe yogikam. So yatra vajishala budhyate, ashwanam gandhaha yatra iti, ashwagandha shabdat vajishala nama ashwashala yatra budhyate, tatra yogikarthasya pratitihi, oshadhi visheshe rudhartha. When it is referring to a plant, yogikarthaha nastyeva, there is no scent of the horse. That is, that plant does not smell like a horse. It is called ashwagandha, that's all. It is, why is it called ashwagandha? We do not know. It is not because it has the scent of a horse. Okay? Tatra kevala rudhihi, rudhya evam uchyate. So it is just a name of a plant. Tada yogikarthaha nasti. Yada tu ashwasambandhi gandhavattaya vajishala ityarthaha budhyate, tatra kevalam yogikam. There is no rudhi there. Okay? So you say ashwagandha, because of the avayavartha, we are getting the meaning of vajishala. Evam cha kashchid rudhya kashchid arthaha budhyate, yogena anyaha kashchid arthaha budhyate. Idam yogika rudham ityuchyate. This is called yogika rudha. But this is not considered as a fourth kind of shakti. This is not similar to yoga rudhi. You should remember the difference. What is the difference? In yoga rudhi, ekasminneva arthe yogaha rudhihi ubhayam vidyate. So pankaja shabdasya eka eva arthaha. It does not have two separate meanings. Okay? It always means only a kamala. Tatra pankajani kartra iti yogarthaha. Evam rudhartha ubhayam api padme eva. Okay, so both yoga and rudhi, in the same artha is yoga rudhi, as in case of pankaja. Tatra padme eva pankajani kartratvam padmatvam ubhayam api asti. Ataha ekasmin eva padarthe yogaha shaktihi ubhayam api asti. Sa yoga rudhihi iti uchyate. Ashwagandha ityatra tu padartha dvayam. There are two separate arthas. One of the artha is derived through rudi. The other artha is derived through yoga. Ekaha yogikaha arthaha bhinnaha, rudhaha arthaha bhinnaha. Sa tadusham padam yogika rudham ityuchyate. Kintu bhinna shaktihi na. It is not a separate kind of shakti. In one of the senses, it is rudhi. In the other sense, it is yoga. So, it can be included either under yoga or under rudhi, depending on which meaning applies in that context. Idam yogika rudham ityuchyate. It is not both together. Ekasmin arthe uhayam yatra asti sa yoga rudhihi. It is a separate kind of shakti. Okay, because even though the yogikartha refers to all panka janikartras, the rudhi restrains the meaning of the word to only lotus. The other things which are born in panka, like say an insect or some kita, is not called pankaja. Okay. It refers only to the lotus. So these usages, bhumav pankaja mutpannam or kalhara kairava mukeshwapi, they are special usages where తాత్పర్యగ్రాహకవశాత్ క్వచిత్ కేవల రూఢ్యర్థస్య బోధః క్వచిద్వా కేవల యోగార్థస్య బోధః భవతి క్వచిత్కం. ఇట్స్ అ వెరీ రేర్ కేస్. ఇన్ మోస్ట్ ఆఫ్ ద కేసెస్ ద వర్డ్ పంకజ మీన్స్ అ లోటస్ విచ్ ఇస్ బోర్న్ ఇన్ పంక. అతః రూఢిః యోగః ఉభయమపి యుగపత్ ప్రవర్తతే సా యోగ రూఢిః ఇతి. అశ్వగంధ పదే తు యదా అశ్వగంధః ఇతి పదం ఔషధి విశేషం బోధయతి తదా కేవల రూఢిరేవ. యదా తు వాజిశాలాం బోధయతి తదా కేవలం యోగః. దేర్ ఇస్ నో రిలేషన్ బిట్వీన్ ద టూ పదార్థస్. ఇట్ మీన్స్ టూ సెపరేట్ థింగ్స్ బై టూ సెపరేట్ శక్తీస్. ఇదం యౌగిక రూఢం ఇత్యుచ్యతే. సో ఇట్ ఇస్ ఆల్సో ద వర్డ్ ఇస్ కాల్డ్ యౌగిక రూఢ. But it is not a separate kind of shakti. Shakti tu trividha eva yogaha rudhihi yoga rudhihi. Evam மண்டப பதம் கிரக விசேஷே ரூடம் மண்டபான கர்த்தரி யோகிகம். So similarly there are other such யோகிகரூட words like மண்டபம். மண்டபம் இது பதம் பவதி. மண்டபம் இட் ரெஃபர்ஸ் டு அ ஹவுஸ். So when we say, I mean, very common usage in Tamil is கல்யாண மண்டபம் or கன்னட பாஷாயாம் அப்பி அஸ்தி மண்டப. சர்வத்ர இட் ரெஃபர்ஸ் டு அ ஸ்மால் பிளேஸ் ஆர் அ ரூம் ஆர் அ ஹால் ஆர் சம்திங். So that is கிரக விசேஷே ரூடம். That is a ரூடார்த்த. By convention, மண்டப means a room or a house. யோகார்த்தம் கஹ மண்டம் பிபதி. Manda is water. When you cook rice, the water which is, in the kanji, in the porridge you have the rice, the water which stands above it. That is called manda. Mandam pivati iti mandapaha. Yatha madhyam pivati iti madhyapaha. Suram pivati iti surapaha. Evam mandam pivati iti arthe mandapaha iti shabdaha. Tada kim bhavati mandapana karta. Yaha mandam pivati saha mandapaha. இதி அர்த்தஹ வித்யதே. மண்டபஹ இத்யுக்தே கிரக விசேஷஹ இத்யர்த்தஹ ரூட்யா புத்யதே. மண்டபானகர்த்தா இத்யர்த்தஹ து யோகேன புத்யதே. ஏததபி யோகிக ரூடம். சோ இட் ஹாஸ் அ டிஃபரண்ட் மீனிங் பை கன்வென்ஷன் அண்ட் அ டிஃபரண்ட் மீனிங் பை த அவயவார்த்த. அவயவார்த்தேன பின்னஸ்ய அர்த்தஸ்ய ஏவம் ரூட்யா அபரஸ்ய அர்த்தஸ்ய பானே தாதிருஷம் பதம் யோகிக ரூடம் இத்யுச்யதே. ஏவஞ்ச பதம் சதுர்விதம். வேர்ட்ஸ் ஆர் ஆஃப் ஃபோர் கைண்ட்ஸ். ரூடம் யோகிகம் யோகரூடம் யோகிக ரூடம் இதி சதுர்விதாஹ சப்தாஹ சந்தி. ரூடஸ்ய சப்தஸ்ய யஹ அர்த்தஹ ஸஹ ரூட்யா பாசதே. சோ அ ரூட வேர்ட் இட் டெலிவர்ஸ் இட்ஸ் மீனிங் by a type of shakti called rudhi, which is pure convention. We call it because it is so. There is no logic on why it is called so. Yogikam. So the yogika word delivers its meaning through a shakti called yoga. So it means you split the components and understand their meaning. Yatha kumbhakaraha kumbham karoti iti kumbhakaraha. Tatra tat padam yogikam. யோகரூடம். சோ அ பதா விச் கன்வேஸ் இட்ஸ் மீனிங் வித் த ஹெல்ப் ஆஃப் த காம்போனன்ட் மீனிங்ஸ் ரிஸ்ட்ரிக்டட் பை கன்வென்ஷன் டு அ பர்டிகுலர் ஒன். சோ த இன் யோகரூடி த யோகிக அர்த்த குட் அப்ளை டு செவரல் திங்ஸ். அமங் தோஸ் திங்ஸ் யூ ஆர் ரிஸ்ட்ரிக்டிங் த மீனிங் டு ஒன்லி ஒன் பை ரூடி ஆஸ் இன் பங்கஜம். தட் இஸ் கால்ட் யோகரூடம் பதம். So the shakti there is called yoga rudhi. It is a combination of yoga and rudhi which brings out the meaning of lotus. Okay, you require both yoga and rudhi to bring out the meaning of lotus. They are working together and therefore the shakti is separate. It is a combination of yoga and rudhi called yoga rudhi. Whereas the yogika rudha words always deliver at least two different meanings. One of the meanings is through ruhi and the other meaning is through yoga. Yogat bhinnaha arthaha pratiyate. Yogena rudhya aparaha arthaha pratiyate. Tadrisham padam yogika rudham ityuchyate. Atra prithak shakti na. So yogika rudhi is not a separate shakti. It is either through yoga or through ruhi. There are two separate meanings. அவகதம் சக்தேஸ் த்ரைவித்யம். Do you have any questions with this? About the kinds of shakti and the kinds of words. அக்ரே சக்தி நிரூபணே அந்திமம் பிரகரணம். யத்ர நானார்த்தகாஹ சப்தாஹ. So where the a single word is used in several different meanings. ஏகஸ்யைவ பதஸ்ய யத்ர பஹவஹ அர்த்தாஹ சந்தி. ஆர் அஸ் வி செட் ஏகஹ சப்தஹ இதி து சமான ஆகார மாத்ரண. பிகாஸ் ஆஃப் சமான வர்ணானுபூர்வி. இட் இஸ் ஆக்சுவலி டிஃபரெண்ட் வேர்ட்ஸ் பட் பிகாஸ் தே ஆல் ஹாவ் த சேம் வர்ணானுபூர்வி வி கால் த சேம் வேர்ட். कथं ज्ञायते अयमेव अर्थः बोद्धव्यः इति कथं ज्ञायते हौ डू वी डिसाइड द मीनिंग दिस इज कॉल्ड इन मॉडर्न कंप्यूटर टर्म्स एज डिसएम्बिगुएशन व्हेन समबडी सेज हरि सो द वर्ड हरि मे हैव 10 डिफरेंट मीनिंग्स अत्र हरि शब्देन किमुच्यते इति कथं ज्ञायते सो द जनरल thing we would say is context, okay, based on the context. But what does context mean? So, tatra katham nyayate iti uchyate saisha shaktihi sanyogadibhihi nanartheshu niyamyate. So, even though a word can have shakti in, there are several shakyarthas for a word, niyamyate, how do we restrict or how do we arrive at a particular meaning in a particular context? Sanyogadibhihi. So there are several factors which help us determine the exact meaning of a word in its context. Taduktam harina, tatra bhartra harina, etau shlokau, athava ete karike uchyate, sanyogo viprayogascha sahacharyam virodhita, artha prakaranam lingam, shabdasyanyasya sannidhihi, samarthyam auchiti deshaha, kalaha vyaktihi swaradayaha, शब्दार्थस्यानवच्छेदे विशेष स्मृतिहेतवः इति भर्तृहरेः कारिकाद्वयम् ये परीक्षां लेखितुमिच्छन्ति निश्चयेन तैः इदं श्लोकद्वयं कण्ठस्थीकर्तव्यम् सो डेफिनेटली यू शुड रिमेम्बर् बै हार्ट् दीस् टू कारिकास् मोस्ट् फ्रीक्वेण्ट्ली आस्क्ड् फार् अ लाङ्ग् आन्सर् यू टु एक्स्प्लेन् दीस् वित् एक्साम्पल्स् सो भर्तृहरिणा उच्यते संयोगादयः सो देर् आर् सेवरल् थिङ्ग्स् स्टिल् स्वरादयः संयोगः विप्रयोगः साहचर्यं विरोधिता अर्थः प्रकरणं लिङ्गम् अन्यस्य शब्दस्य सन्निधिः सामर्थ्यम् औचिती देशः कालः व्यक्तिः स्वरादयः एते सो आल् दीस् इत्यादयः सो सच् थिङ्ग्स् शब्दार्थस्य अनवच्छेदे एते संयोगादयः नानार्थेषु शब्देषु शब्दार्थस्य अनवच्छेदे नाम सन्देहे यत्र शब्दस्य अर्थविषये सन्देहः नानार्थेषु शब्देषु वेर् अ वर्ड् क्यारी सेवरल् मीनिङ्ग्स् शब्दार्थस्य अनवच्छेदे सन्देहे उत्पन्ने सो वेन् अ डौट् अरैसस् एस् टु द मीनिङ्ग् आफ् अ पर्टिक्युलर् वर्ड् विशेषस्मृतिहेतवः So these help in fixing the meaning of the word. Tad apakarana dvara, nama sandehasya apakarana dvara, vishesha artha nirnayakaha, tasmin sandarbhe kaha vishishtaha arthaha budhyate iti nirnayam kurvanti, nirnayam kartum sanyogadayaha sahakurvanti ityarthaha. शब्दार्थस्य अनवच्छेदे सन्देहे तदपाकरणद्वारा विशेषार्थनिर्णायकाः इति तदर्थः तत्र प्रत्येकम् उदाहरणानि दीयन्ते आफ्टर् दिस् हि गिव्स् एक्साम्पल्स् फार् ईच् आफ् दीस् आदौ संयोगः अनन्तरं विप्रयोगः सो संयोग एण्ड् विप्रयोग आर् सिमिलर् सो इट् इस् असोसियेशन् एण्ड् डिसोसियेशन् सो आन् द बेसिस् आफ् असोसियेशन् आर् द लाक् आफ् असोसियेशन् वी केन् अण्डर्स्टाण्ड् द वर्ड् संयोग विप्रयोगयोः उदाहरणे सवत्साधेनुः अवत्साधेनुः इति सवत्साधेनुः इति संयोगस्य उदाहरणम् अवत्साधेनुः इति विप्रयोगस्य उदाहरणम् तत्र इदं ज्ञातव्यं धेनुः इति शब्दः धेनुः नवप्रसूता सो संथिङ्ग् which has just given birth across all species. So dhenu actually does not mean only a cow, though we normally use it as a cow nowadays. I mean, that is the meaning we generally understand. Kintu dhenu shabdena navaprasuta sarva eva drishyate iti mate idam dhenuhu nama navaprasuta ityeva arthaha yatra asti tatra ka iti chet कः प्राणिः कः प्राणिविशेषः उच्यते इति सन्देहे जाते सवत्सा धेनुः वत्सेन सहित वत्सशब्दस्तु गोवत्से एव रूढः सो द वर्ड् वत्स इस् यूस्ड् फार् अ काफ् स्पेसिफिकलि फार् द काफ् आफ् अ कौ अतः वत्सशब्देन संयोगात् धेनुशब्दः अपि गोवाच्यः एवं वत्सेन विप्रयोगात् अवत्साधेनुः इत्यत्र विप्रयोगः. सो द कौ विथौट् अ काफ, सो विथौट् अ काफ इत्युक्तत्वात् तत्रापि धेनुशब्दः गाम एव बोधयति इति निर्णयः संयोगेन विप्रयोगेन वा भवति इत्यर्थः. धेनुशब्देन नवप्रसूता सर्वा एव गृह्यते इति मते इदम्. सैवन् बिलो हि सेस् सवत्सा इत्युक्ते धेनुरेव प्रतीयते. सो धेनुः नाम गौः एव प्रतीयते इत्यर्थः. अवत्सा इति निषेधस्य प्राप्तिपूर्वकत्वात्, यत्र निषेधः क्रियते तत्र पूर्वं प्राप्तिः भवेत्. मा गच्छ इति कदा उच्यते? यदि गमनं प्रसक्तम्. सो वेन् यु आर् रेडी टु गो, मा गच्छ इति निषेधः सार्थकः. यदि गमनस्य प्रसक्तिरेव नास्ति तदा मा गच्छ इति निषेधः अपि नोत्पद्यते. अतः यत्र अवत्सा इत्युच्यते तत्र वत्सस्य सम्भवः अस्ति इत्यतः अवत्सा अपि गौरेव उच्यते इति भावः. सो संयोगेन विप्रयोगेन वा अत्र सवत्साधेनुः अवत्साधेनुः इत्यत्र गोरेव ग्रहणं भवति. संयोगः विप्रयोगश्च साहचर्यम्, साहचर्यस्य रामलक्ष्मणौ इति. रामलक्ष्मणौ इत्युच्यते रामशब्दः बह्वर्थकः. दाशरथिः रामः अस्ति, भार्गवरामः नाम परशुरामः अस्ति, बलरामः अस्ति. रामलक्ष्मणौ इत्युक्ते तु सन्देहः न भवति. केवलं रामः इत्युक्ते दाशरथिः उच्यते वा परशुरामो वा बलरामो वा इति सन्देहः भवति. किन्तु यत्र रामलक्ष्मणौ इत्युच्यते तत्र तु सन्देहः नास्ति. किमर्थम्? साहचर्यात्. साहचर्यं सादृश्यं, सदृशयोरेव सहप्रयोगः. साहचर्य सिमिलारिटी बिकास् सदृशयोरेव सहप्रयोगः भवति. सो तादृश्यं च दाशरथित्वेन. सो उभौ अपि दशरथकुमारौ इति उभयोः सादृश्यं, तयोरेव सहप्रयोगः इति नियमात् रामलक्ष्मणौ इत्यत्र साहचर्येण बिकास् आफ् देयर् बीङ्ग् एक्स्प्रेस्ड् टुगेदर् रामशब्दस्य दाशरथिरेव अर्थः इति नियम्यते. रामार्जुनगतिस्तयोः इत्यादौ विरोधेन तत् देर् कुड् आल्सो बि विरोध. रामार्जुनगतिः तयोः इत्युच्यते. सो दे आर् लैक् रामार्जुनौ. कः अर्थः अत्र? रामशब्दस्य कः अर्थः, अर्जुनशब्दस्य कः अर्थः इति चेत् विरोधेन. It is referring to a virodha. It is not sahacharya here. I mean, it is a kind of sahacharya, but it is actually opposition. So, Ramarjuna gatihi ityanena Parashuramaha Kartavirya-arjunaha. Atra Rama shabdasya Parashuramaha ityarthaha. Evam Arjuna shabdasya Kartavirya-arjunaha ityarthaha. Atra Ramarjuna yoriva tayor gatihi iti Katsyasit upamayam Sadrishalakshanaya virodhat. Because the Rama and Arjuna are not together, there is no sadrishya. Atah virodhat bhargava kartaviryayoh bodhah. Because the virodha or the enmity between Parashurama and Kartavirya Arjuna is prasiddha, atah virodhena atra Rama shabdasya Parashuramaha ityarthah evam Arjuna shabdasya Kartavirya Arjunah ityarthah pratiyate. संयोगो विप्रयोगश्च साहचर्यं विरोधिता अर्थः. अञ्जलिना जुहोति, अञ्जलिना सूर्यम् उपतिष्ठते इत्यत्र जुहोति इत्यादि पदार्थवशात् अञ्जलिपदस्य तत्तदाकार अञ्जलिपरत्वम्. अञ्जलिशब्दः, सो द अञ्जलि रेफर्स् टु द टू हेण्ड्स् टुगेदर्. इट् इस् आफ् डिफरेण्ट् कैण्ड्स्. वन् इस् वेन् से यु आर् गिविङ्ग् एन् अर्घ्य. अर्घ्यदाने यथा अञ्जलिः भवति न तथा नमस्कारे. सो वेन् यू फोल्डेड् हेण्ड्स् फार् नमस्कार इस् आल्सो काल्ड् अञ्जलि. एण्ड् ब्रिङ्गिङ्ग् टुगेदर् कप्ड् हेण्ड्स् टुगेदर् फार् सम्थिङ्ग् लैक् गिविङ्ग् एन् अर्घ्य इस् आल्सो काल्ड् अञ्जलि. तत्र अञ्जलिशब्देन कः अर्थः इति चेत् जुहोति इत्यादि पदार्थवशात् डिपेण्डिङ्ग् आन् द मीनिङ्ग् आफ् द क्रिया विच् इस् associated with it. Juhoti iti homakarmani yadrishi anjalihi, anjaleha akaraha tattadakara anjali paratvam. So it is determined. The shape of the Anjali or the exact meaning of Anjali is determined based on the Padartha. That is the meaning with which it is associated. Anjalina Suryam Upadishthate. So for giving an Arghya to Surya, Ityadhyarthe, Juhoti Ityadi Padartha Vashat, Anjali Padasya, Tattadakara Anjali Paratvam. Iti Arthat Nirniyate. Prakaranam. Saindhavam Anaya Ityadav Prakaranena Tat. So when somebody says Saindhavam Anaya, Saindhava Padasya Arthadvayam, Lavanam Ityarthaha, Ashvaha Ityapi Arthaha. Saindhavam Sindhoho Jatam. So that which is born from the ocean or Samudra is from the Sindhu is Saindhava. So you have salt being extracted from sea water, and horses are popularly known to be born from the ocean. Okay, so it's a popular convention. So, Saindhava Shabdasya Ashvaha Ityapyarthaha Lavanam Ityapyarthaha Saindhava Manaya Ityate Kathamyayate Prakaranayana Tat. Yadi Bhojana Samaye Saindhava Manaya Ityuchyate Tarhi Lavanaha Iti Lavanapadarthaha Jnayate. Yadi Bahihi Kvachit Prasthitaha Saindhava Manaya Iti Kathayati Tarhi Ashvasya Ashvaha Ityarthaha Pratiyate. So this is what we generally called as context. Prakaranam. So based on the context with which it is used. Prakaranam. Saindhava Manaya Ityadav Prakaranayana Tatu. Tatu Nama Shaktehe Niyamatam. Vishishte Arthe Shaktehe Niyamanam. So restricting, even though there are several Shaktyarthas, understanding which particular word or which particular Artha is to be meant here is by Prakarana. Samyogo Viprayogascha Sahacharyam Virodhita Arthaha Prakaranam Lingam. So Lingam ititu Aktaha Sharkara Upadadhati Ityadav Tejovai Kritam Iti Krita Stutirupa Lingat Aktaha Ityasya Krita Sadhanaka Anjana Paratvam. So the Linga here does not mean the gender. Pullingam Pullingam Ityasya Na. Sanyogatirikta sambandhena sambandhaha vyavartaka dharmaha lingam. So lingam means an indicating factor. So other than sanyoga. So directly, direct association is sanyoga. So by some other sense, if there is an indication, it is called linga. Atra sharkaraha. Mrittika mishraha kshudra pashanaha sharkaraha. So sharkara does not mean sugar. In this context, this is a Vedic context, Sharkaraha nama kshudra pashanaha, small stones are called Sharkara. Mrittika mishraha, small stones which are mixed with mrittika is called Sharkara. Atra aktaha sharkaraha upadadhati, ityatra akta iti shabdaha asti. Akta means that which is smeared with something. So smeared with what iti prashne tejovai ghritam iti ghrita stuti rupa lingat. So there is an indication in that context where tejovai ghritam, ghrita is being praised, ghrita stuti rupat lingat aktaha ityasya ghrita sadhanaka anjana paratvam. So atraktaha ityanena smeared with ghee ityeva arthaha svikriyate nanyena kenachit. Atra sahakari bhavati lingam, ghrita stuti rupa lingat, because it is associated with a identifying factor called ghrita stuti. Okay. So because of that, we take the meaning of akta as ghrita akta, smeared with ghrita and not with something else. Arthaha prakaranam lingam shabdasya anyasya sannidhihi anyasya shabdasya sannidhihi ramo jamadajnyaha punaha atrapi rama shabdaha bahvarthakaha ramo dasharathihi ityukte dasharatha putrasya ramasya evam ramo jamadajnyaha iti jamadajnya pada sannidhanat ramaha parashuramaha. So because of the word jamadajnya we can fix the meaning on parashurama. Shabdasyanyasya sannidhihi samarthyam abhirupaya kanyadeya ityadav abhirupa taraya iti samarthyat pratiyate. Abhirupaya kanyadeya, he who is of a good form, ityatra kevalam अभिरूपः इति न, अभिरूपतराय, ही हू इज द बेस्ट अमंग द चॉइसेस इत्यर्थे, सामर्थ्यात्, बिकॉज ऑफ द सामर्थ्य, कन्यादाने सामर्थ्यम् इति भवति. सो सामर्थ्यम् इज द पवर् आफ् एक्स्प्रेशन्. सो केवलम् अभिरूपाय देया इत्यत्र वक्तव्यं नास्ति, अभिरूपतराय देया, ही हू इज द बेटर् आर् बेस्ट् अमङ्ग् द चाय्सस् तस्मै देया इति वचनसामर्थ्यात्, बिकास् इट् इस् स्पेसिफिकली बीङ्ग् टोल्ड्, सामर्थ्यात् प्रतीयते. सामर्थ्यम् औचिती, यष्टनिम्बं परशुना, यष्टैनं मधुसर्पिषा, यष्टैनं गन्धमाल्याद्यैः सर्वस्य कटुरेव सः. निम्बं, सो निम्ब इस् नीम्. यष्टनिम्बं परशुना, यष्टैनं मधुसर्पिषा, यष्टैनं गन्धमाल्याद्यैः, अत्र औचित्यात्, सो औचित्य इस् रिलेवेन्स्. ओके, निम्बं परशुना इत्युक्ते किम्? What can you do with an axe? You can only cut it. Parashuna chinatti. He who cuts a nimba with a parashu, with an axe. Yashchainam madhusharpisha. Ityatra auchityat parashuna ityatya chedanarthatvam. Parashuna chinatti. Madhusharpisha. Madhu sarpihi. Madhu is honey and sarpi is ghee. Madhusharpisha kim karoti. Madhusharpisha ityasya sesanarthatvam. So he who sprinkles it with honey or ghee, yashchainam gandhamalyadyaihi, gandhamalyadyaihi ityasya pujanarthatvam. Kim kartum shakyate, what else can you do with gandha and mala other than worship it? So vastutaha shlokasya arthastu, he who cuts a neem tree with an axe or sprinkles it with honey and ghee or worships it with gandhamalya, सर्वस्य कटुरेव सः. नीम् डस् नाट् चेञ्ज् इट्स् स्वभाव इत्यर्थः. कटुः इत्यत्र इट् डस् नाट् मीन् कटु एज़् इन् स्पैसि. कटुशब्दः तीक्ष्णरसः, कारम् इत्यर्थे अस्माभिः प्रतीयते. अत्र तु अप्रियः इत्यर्थः, सर्वस्यापि अप्रियः. यतोहि निम्बस्य रसः इट् इस् बिटर्, इट् इस् नाट् कटु. अत्र कटुशब्दस्य अप्रियः इत्यर्थः. कटुशब्दः इत्यादौ इव, यथा तस्य शब्दाः अत्यन्तं कटवः, हि स्पीक्स् वेरि हार्श्ली इत्यर्थे कटुशब्दः, इत्यादाविव कटुशब्दः अप्रियार्थकः. अन्यथा निघण्ट्वादौ तस्य तीक्ष्णरस मरीचशुण्ठी पिप्पल्याद्यर्थकत्वेन. So, katu, when you are talking of the shad rasaha, it refers to the rasa which is present in pepper or shunthi, ginger or pippal. Okay. So, drishtatvat, tasya cha nimbe abhavat, nimbe tu katu rasaha nasti, ataha sarvasya katurevasaha ityatra apriyaha ityarthaha. यष्टनिम्बं परशुना, यष्टैनं मधुसर्पिषा, यष्टैनं गन्धमाल्याद्यैः सर्वस्य कटुरेव सः. अत्र परशुना इत्यस्य छेदनार्थत्वं, मधुसर्पिषा इत्यस्य सेचनार्थत्वं, गन्धमाल्याद्यैः इत्यस्य पूजनार्थत्वं च औचित्येन ज्ञायते. सामर्थ्यम् औचिती. भात्यत्र परमेश्वरः इत्यत्र राजधानी रूप देशात् परमेश्वर पदं राजबोधकम्. सो देशः सामर्थ्यमौचित्ये देशः. सो द प्लेस् केन् आल्सो डिटर्मिन् द मीनिङ्ग्. अत्र परमेश्वरः भाति इति क्वचिदुच्यते, राजभवने राज्ञः पुरतः उच्यते. भात्यत्र परमेश्वरः इत्यत्र राजधानी रूप देशात्, बिकास् ही इस् इन् अ केपिटल् सिटि आर् ही इस् इन् अ पालेस् वेन् मेकिङ्ग् द स्टेट्मेण्ट्, परमेश्वर पदं राजबोधकम् इति ज्ञायते. यदि तु क्वचित् हिमालये गत्वा भात्यत्र परमेश्वरः इति उच्यते, अथवा शिवमन्दिरे गत्वा भात्यत्र परमेश्वरः इत्युच्यते, तत्र तु शिवः एव अर्थः इति ज्ञायते. भात्यत्र परमेश्वरः इत्यत्र राजधानीरूपदेशात् परमेश्वरपदं राजबोधकम्. चित्रभानुर्भाति इत्यादौ, चित्रभानुः, चित्रभानुशब्दस्य सूर्यः इत्यप्यर्थः, अग्निः इत्यप्यर्थः. सो सूर्यः भाति इत्यर्थः वा, अग्निः वा इति चित्रभानुर्भाति इत्यादौ रात्रौ अग्नौ दिवा सूर्ये यदि प्रातःकाले चित्रभानुर्भाति इत्युच्यते तदा सूर्यः अर्थः यदि तु रात्रौ उच्यते तदा अग्निः इत्यर्थः सामर्थ्यमौचिति देशः कालः एवं कालः अपि शक्तिनिर्णायकः भवति व्यक्तिः लिङ्गम् कालः व्यक्तिः अत्र व्यक्तिः इत्यस्य लिङ्गम् लिङ्गम् नाम जेण्डर् इत्यर्थः पूर्वं लिङ्गशब्दः प्रयुक्तः सः सूचकम् इत्यर्थे सो देर् इट् मीन्स् एन् इण्डिकेटिङ्ग् फ्याक्टर् अत्र तु जेण्डर् जेण्डर् आफ् द वर्ड् वयं जानीमः भिन्नेषु लिङ्गेषु अर्थभेदः भवति मित्रो भाति मित्रं भाति इत्यादौ आदौ सूर्यः अन्त्ये सुहृत् मित्रो भाति इति पुल्लिङ्गस्य प्रयोगे सूर्यः अर्थः मित्रं भाति इति नपुंसकस्य प्रयोगे सुहृत् अर्थः एवं च व्यक्त्या नाम लिङ्गेन अपि अर्थः ज्ञातुं शक्यते स्वरादयः स्वरः उदात्तानुदात्तस्वनितादयः वेदे एवं भवति स्थूलपृशतीम् इत्यादौ स्वरात् तत्पुरुष बहुव्रीह्यर्थनिर्णयः स्थूलपृशतीम् अनडुहीम् आलभेत इत्यादि वैदिकप्रयोगाः सन्ति तत्र स्थूलपृशति इत्यत्र स्थूलाचासौ पृशति च इति तत्पुरुषसमासो वा स्थूलानि पृशन्ति यस्याः इति बहुव्रीहिसमासो वा इति सन्देहः स्वराधारेण बेस्ड् आन् द स्वर दे डिसैड् वेदर् इट् मीन्स् ऐ मीन् इट् गेट्स् द मीनिङ्ग् औट् आफ् तत्पुरुषसमास आर् औट् आफ् बहुव्रीहिसमास इति शक्तिनिरूपणम् स्वरादयः सो इट् सेज् आदिपद आदिपदात् अन्येऽपि सन्ति यथा कारिकायां स्वरादयः इत्युक्तं तत्र आदिना षत्व सत्व णत्वादि ग्राह्यम् सो देर् आर् आल्सो अदर् फ्याक्टर्स् इन् द वर्ड् इट् सेल्फ् विच् चेञ्ज् द मीनिङ्ग् यथा सुसिक्तम् इत्यत्र पूर्वार्थः सुषिक्तम् इत्यत्र अन्यार्थः सो वेदर् देर् इस् अ षत्व इन् सुसिक्त और् सुषिक्त एट्सेट्रा केन् आल्सो चेञ्ज् द मीनिङ्ग् सत्षत्व सत्व इत्यादयः सो दीस् आर् द फ्याक्टर्स् संयोगो विप्रयोगश्च साहचर्यं विरोधता विरोधिता अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः सामर्थ्यम् औचिती देशः कालः व्यक्तिस्वरादयः शब्दार्थस्य अनवच्छेदे विशेषस्मृतिहेतवः सो यत्र शब्दार्थस्य विषये सन्देहः भवति तदा एते अंशाः विशेषस्मृतिं जनयन्ति अयमेव अर्थः एतत् शक्यः अत्र उच्यते इति ज्ञातुं साहाय्यं कुर्वन्ति इत्यर्थः So these are the factors which help in determining the meaning of a nanarthaka word in a particular usage. Okay. Any questions? So adya patitasya sankshepah shaktihi trividha bhavati rudhihi yatha manihi nupuram ityadav samudayartham समुदायार्थमात्रस्य भानं भवति अवयवार्थस्य प्रतीतिः नास्ति सा शक्तिः रूढिः इत्युच्यते तादृशं पदं रूढम् यत्र समुदायार्थः पृथग् नास्ति अवयवार्थद्वारा एव अर्थः प्रतीयते यथा पचति इति पाचकः दशरथस्य अपत्यं दाशरथिः इत्यादि सा शक्तिः योगः इत्युच्यते तादृशं पदं यौगिकम् यत्र तु योगरूढ्योः समवायेन सो बै अ मिक्स्चर् आफ् योग एण्ड् रूढि वि गेट् अ मीनिङ्ग् यथा पङ्कजम् तत्र पङ्काज्जायते इति पङ्कजनिकर्तृत्वम् अपि अस्ति सा योगः तथैव पद्मं कमलपुष्पम् एव अनेन उच्यते इत्यत्र रूढिः एवं योगेन रूढ्या च योगरूढ्योः समुच्चयेन एकः पदार्थः प्रतीयते शब्दात् सा योगरूढिः इति शक्तिः तादृशं पदं योगरूढम् यौगिकरूढिः इति शक्तिः न एक्चुलि द पद इस् काल्ड् यौगिकरूढ इट् इस् भिन्नस्य अर्थस्य प्रतिनिधिः योगेन अन्यस्य अर्थस्य रूढ्या अन्यस्य अर्थस्य प्रतिनिधिः यत्र भवति तादृशं पदं यौगिकरूढम् इत्युच्यते sorry, I should not have made it yogika rudhi. It appears as if it's a separate shakti. It is not. Shakti is only of three kinds. So, in words which are called yogika rudha, we have a separate meaning through rudhi and a separate one through yoga. Yatha mandapaha iti padam, tatra griha visheshaha yogena rudhya budhyate, mandapanakarta ityarthaha yogena budhyate. Shakti niyamanopayaha. So, ways to determine shakti. So, we saw this. We have sanyoga, viprayoga, sahacharyam, virodhita, arthaha, prakaranam, lingam, anyasya shabdasya sannidhihi, samarthyam, auchiti, deshaha, kalaha, vyaktihi, smaradayaha. Ityete shakti niyamanopayaha. So, all these factors will help in fixing the meaning of a particular word within its context. Any questions? So, anena shakti nirupanam samaptam. So, this completes the first chapter of Paramahagavan Josha called Shakti Nirupana. We discussed what is shakti, what are the types of shakti, and how do we determine shakti in case of ambiguity. Agriva prakarane lakshana nirupyate, shakti sambandho lakshana ityanena. Otherwise, we will stop here. Next class is on Friday morning, same time. ಶಿವನ್ನತ್ವಾಹಿನಾಗೇಶೇ ನಾನಿಂದ್ಯಾ ಪರಮಾಲಘು ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಮಂಜೂಷೈಷಾ ವಿರಚ್ಯತೆ